ॐ गणानां त्वा गणपतिकं हवामहे कविं कवीनामुपमिष्टवस्तमं ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पदान् शृण्वन्नो दिभिः सीदसाधनम् ॐ श्रीमहागणाधिपतये नमः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषुः शिवतमा शिवं बभोवते धनुः शिवाशरव्यायादवतया नो रुद्रमृणयाम् या ते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्तापि चाकशीः यामिषं गिरिशं दहस्तेऽभि भक्ष्यस्तवे शिवां गिरिद्रतां कुरु माहिगं से पुरुषं जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसे यथा नः सर्वमिज्जगदयक्ष्मगं सुमना असत् अध्यवोचदधि भक्ता प्रथमो दैव्योऽभिषक् अहेकश्च सर्वाञ्जम्भयन् सर्पाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः हे चेमागं रुद्र अभितो दिक्षश्रिता सहस्रशो वैशाखं हेण इमहे असौ यो वसर्पति नीलग्रीवो विलोहितः उतैनं गोपादृशन्नदृशन्नदहार्यः उतैनं विश्वाभूतानि सदृष्टा वृणजातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहं तेभ्यो करण्णवः प्रमुञ्च धन्वनस्त्वमुभयोरात्मयोर्ज्याम् याश्च ते हस्त इषवः पराता भगवो वपा अवतत्य धनुस्त्वगं सहस्राक्षशतेषु ते निषेय शल्यानां मुखा शिवो नः सुमना भवाम् विज्यं दनः कपर्थिनो विशल्यो बाणवागम् उताम् अनेशन्नस्येषव बाहुरस्य निशङ्गतिः या ते हेतिर्मे दुष्टमहस्ते भभोवते धनः अयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नाददाय कृष्णवे उभाभ्यामुतधे नमो बाहुभ्यां तव धन्वने परिते धन्वनो हेतिरस्मान् वृणत्व विश्वतः अथो यैषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकात्मिकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय शङ्कराय श्रीमन्महादेवाय नमः ॐ नमो हिरण्यवाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय कृषीमते पथीनां पतये नमो नमः बब्लुषाय विभ्यादिनेन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथा विने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवसृताय औषधीनां पतये नमो नम उच्छैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नम कृत्स्नवीताय धावते सत्त्वनां पतये नमः नमः सहमानाय दिव्याधिन आभ्याधिनीनां पतये नमो नम ककुबाय निषङ्गिणे स्नेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्थायो न पतये नमो नमो निचेरवे परिचरायारण्याना पतये नमो नमः श्रीकाविभ्यो जिगाघं सद्व्योमुष्णता पतये नमो नमो श्रीमद्भ्यो नक्तं चरभ्य प्रकृन्ताना पतये नमो नमः उष्णीषिणे गिरिचराय कुलञ्चाना पतये नमो नमः इषुमद्भ्यो धन्वाविभ्यश्च भो नमो नमः आतन्मानेभ्य प्रतिदधानेभ्यश्च भो नमो नमः आयच्छद्भ्यो विसृजद्भ्यश्च भो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च भो नमो नमः आसीनेभ्य शयानेभ्यश्च भो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च भो नमो नमः तिष्ठद्भ्यो दावद्भ्यश्च भो नमो नमः सभाभ्यः सभापतिभ्यश्च भो नमो नमः अश्वेभ्योऽश्वपतिभ्यश्च भो नमः नमाभ्याधिनेयेभ्यो विविद्यन्तेभ्यश्च भो नमो नमः उगणाभ्यस्त्रगं हतेभ्यश्च भो नमो नमः वृत्सेभ्यो वृत्सपतिभ्यश्च भो नमो नमः व्रातेभ्यो व्रातपदेभ्यश्च भो नमो नमः गणेभ्यो गणपदेभ्यश्च भो नमो नमः विरूपेभ्यो विश्वरूपेभ्यश्च भो नमो नमः महद्भ्यः क्षुल्लकेभ्यश्च भो नमो नमः रथेभ्यो रथेभ्यश्च भो नमो नमः रथेभ्यो रथपदेभ्यश्च भो नमो नमः सेनाभ्यः सेनानिभ्यश्च भो नमो नमः क्षत्रभ्यः संग्रहीतृभ्यश्च भो नमो नमः सक्षभ्यो रथकारेभ्यश्च भो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च भो नमो नमः कुञ्जिष्ठेभ्यो निषादेभ्यश्च भो नमो नमः इषुग्रद्भ्यो धन्वकृद्भ्यश्च भो नमो नमः मृगयोभ्यश्वनेभ्यश्च भो नमो नमः स्वभ्यश्वपदेभ्यश्च भो नमः नमः भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमः नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमः गिरिशाय च शिपिविष्टाय च नमः मीदुष्टमाय चेशुमते च नमः ह्रस्वाय च वामनाय च नमः गृहते च वर्षेयसे च नमः वृद्धाय च संवृत्मने च नमः अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय च वस्वन्याय च नमः स्रोतस्याय च द्वेभ्याय च नमः ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमः मध्यमाय च अपगल्भाय च नमः जगन्याय च पुत्न्याय च नमः सोभ्याय च प्रतिसर्याय च नमः याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय च वसान्याय च नमः वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च वबिन्दते च नमः वर्मिणे च वरूथिने च नमः भिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमः दुन्दुभ्याय च हनन्याय च नमः तृष्णवे च प्रमृषाय च नमः दूताय च प्रहिताय च नमः निषङ्गिने चेशुधिमते च नमस्ते क्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुदन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नेप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च నమస్సోమాయ చ రుద్రాయ చ నమస్తామ్రాయ చ అరుణాయ చ నమః శంఖాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమః అగ్రే వధాయ చ దూరే వధాయ చ నమః అంత్రే చ హనీయసే చ నమః వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః స్థీర్థ్యాయ చ కోల్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆధార్యాయ చ నాద్యాయ చ నమః షష్ప్యాయ చ ఫేన్యాయ చ నమసి కత్యాయ చ ప్రవాహ్యాయ చ నమ హిరణ్యాయ చ ప్రపత్యాయ చ నమః కికం శిలాయ చ క్షయనాయ చ నమః కపర్ధినే చ పులస్తయే చ నమః గోష్ఠ్యాయ చ గృహ్యాయ చ నమః స్థల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గహ్వరేష్ఠాయ చ నమః హృదయ్యాయ చ నిమేష్ప్యాయ చ నమః పాగం సవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమః లోప్యాయ చ లప్యాయ చ నమః ఊర్వ్యాయ చ సూర్మ్యాయ చ నమః పర్ణ్యాయ చ పర్ణశద్యాయ చ నమః పగురమానాయ చ అభిఘ్నతే చ నమః ఆఖిదతే చ ప్రఖిదతే చ నమః వక్రికేభ్యో దేవానాగం హృదయేభ్యో నమః విక్షీణకేభ్యో నమః విచిన్వత్కేభ్యో నమః నిర్హతేభ్యో నమః మీవత్కేభ్యః ద్రాభే అందసస్పథే దరిద్రగ్నీలలోహిత ఏషాం పురుషాణాం ఏషాం పశూనాం మాభేర్మా హోమో ఏషాం కిం చ నామమతి యా తే రుద్ర శివా తనో శివా విశ్వాహ భేషజీ శివా రుద్రస్య భేషజీ తయా నో మృళ జీవసే ఇమాగం రుద్రాయ తవసే కపర్ధినే క్షయద్వీరాయ ప్రభరామహే మతిం యథా నశ్యమ సద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం ప్రణానారుద్ధోదనోమయస్మృతి క్షయద్వీరాయ నమసా విధేమతే యచ్ఛం జయోష్ణమనురాజ చేపి దాతదశ్యామ తవ రుద్ర ప్రణీతౌ మానా మహాంతముత మానా అర్భకం మానా క్షంతముత మానా ఉక్షితం మానవదే పితరం మోత మాతరం ప్రియమానస్తనువో రుద్రరీరిషః మానస్తోకేతన హే మాన ఆయుషిమాన గోషుమాన అశ్వేషురీరిషః వీరాన్ మాన రుద్రభామితో వధే హవిష్మంతో నమసా విధేమతే ఆరాప్తే ఘోగ్న ఉత పూరుషగ్నే క్షయత్వేరాయ సున్నమస్మేతే అస్తు రక్షా చ నో అధి చ దేవ బ్రూహ్యదా చ న శర్మ యచ్చద్విబర్హాః స్తుహిష్వతం గర్దసదం యువానం మృగన్న భీమముపహత్తుముగ్రం మృడా చరిత్రే రుద్రస్తవాన అన్యంతే అస్మన్నివ బంధుసేనాః పరిణో రుద్రస్య హేతిర్వృణత్వ పరిద్వేషస్య దుర్మతిరఘాయోః అవస్థిరామగవద్భ్యస్తనశ్వమేవస్తోకాయతనయాయ మృడజాం మేడష్టమ శివ తమ శివ నః సుమనాభవాం పరమే వృక్ష ఆయుధం నిధాయ కృత్యం వసానాచర పినాకం బిభ్రదాగహీ వికిరిద విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగం హేతయోన్యమస్మన్నివ బంధుతాః సహస్రాణి సహస్రదా బాహువోస్తవ హేతయః తాసామీషాన భగవః పరాచీనా ముఖాకృతి సహస్రాణి సహస్రశో యే రుద్రాదిభూమ్యాం తేషాగం సహస్రజో జనే వదన్వాని తన్మసే అస్మిన్ మహత్యర్ణవే ఏంతరిక్షే భవా అధి నీలగ్రీవాశితి కంఠా శర్వా అధక్షమాచరాః నీలగ్రీవాశితి కంఠాదివగం రుద్ర ఉపశ్రితాః యే వృక్షేషు సస్పింజనా నీలగ్రీవా విలోకితాః ये भूतानाम अधिपतयो विशिका सर्गवर्धिनः ये अन्येषु विद्यन्ति पात्रेषु पिपथो जनाने ये पथां पतिरक्षयैलभृदाय व्युदः ये तीर्थाणि प्रचरन्ति सृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागंसश्च दिशो रुद्रावितस्थिरे तेषागं सहस्रजो जने वदन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्यां ये ऐन्तरिक्षे ये दिव्ये शामन्नं वात वर्षमिषवस्तेभ्यो दश प्राचेदश दक्षिण दश प्रतिच्छेदशो देच्छेदशो द्वास्तेभ्यो नमस्ते न मृडयन्तु तेजं विष्मो यश्च नो द्वेष्टितं भोजं भेदधामि त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मक्षेयमामृतात् यो रुद्रो अग्नो यो अप्सु योषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु नमस्तु हि अश्विशुः सुधन्वाय विश्वस्य क्षयति भेषजस्य यक्ष्वा आमहेसौ मनसाय रुद्रं नमोभिर्देवमसुरं दिवस्य अयं मे हस्तो भगवान् अयं मे भगवत्तरः अयं मे विश्वभे एष जोजकं शिवाभिमर्षणः ये ते सहस्रमयुतं पाशा मृत्योमर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्याजस्वाम् ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसेमावर्धन्तु वां गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवच्च मे प्राणश्च मे पानश्च मे ध्यानश्च मे सुच्च मे चित्तं च माधीतं च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च मोचश्च मे सहश्च मायश्च मे जरा च मात्मा च मे तनोश्च मे शर्म च मे वर्म च मे अङ्गानि च मे स्थानि च मे परोपंशि च मे शरीराणि च मे जैष्ठ्यं च माधिपत्यं च मे मन्यश्च मे भामश्च मे मश्च मे म्हश्च मे येमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धेश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशच्च मे त्विषिच्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमानं च मे सोऽग्नं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुखं च मे सुपतं च मरुद्धं च मरुद्धिश्च मे क्लुप्तं च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मे नुकामश्च मे कामश्च मे सोमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यच्च मे यशच्च मे भगच्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महच्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे शीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातश्च मे दीर्घायुत्मं च मे न मित्रं च मे भयं च मे सुखं च मे शयनं च मे सूषा च मे सुदिनं च मे ओर्च मे सोनृता च मे पयश्च मे रसच्च मे घृतं च मे मधु च मे सद्यश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च मौद्भिद्यं च मे रयश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम च मे पूर्णतरम च मे क्षतिश्च मे कूयवाच्च मे नम च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे हल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियं गवश्च मे नमश्च मे श्यामकाश्च मे नीवाराश्च मे अश्माच मे मृत्तिकाच मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च मे आपश्च मे वीरुडश्च मे औषधयश्च मे कृष्णपच्यं च मे कृष्णपच्यं च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पतां वित्तं च मे वित्तश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे स्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्ठा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मे तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगम शुच्च मे रश्मिश्च मे दाभ्यश्च मे धिपतश्च म उभागम शुच्च मे दर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च मे अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयनश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मर्तगृहाश्च मे तिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुद्वतीयाश्च मे माहेन्द्रश्च मादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हारियोजनश्च मे इत्मश्च मे बर्हिश्च मे वेदिश्च मे तिष्णीयाश्च मे सृचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च मौभरवाश्च मे दिशवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्छ मे आधवणीयश्च माग्नेद्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोढाशाश्च मे पचताश्च मे बभुतश्च मे सगाकारश्च मे अग्निश्च मे धर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथ्वी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरे रङ्गुलयोदिशश्च मे यज्ञेन कल्पता मृच्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतश्च मे ऋतं च मे होरात्रयोर्दृष्ट्यां बृहद्रतन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे द्रविच्च मे द्रवी च मे दित्यवाच्च मे दित्यौहे च मे पञ्चाविच्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्ठवाच्च मे पष्टौहे च म उक्षा च मे वशा च म ऋषभच्च मे वेहच्च मे नत्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पतम् प्राणो यज्ञेन कल्पताम पानो यज्ञेन कल्पताम व्यानो यज्ञेन कल्पताम चक्षुर्यज्ञेन कल्पताम श्रोत्रं यज्ञेन कल्पताम मनो यज्ञेन कल्पताम वाग्यज्ञेन कल्पताम आत्मा यज्ञेन कल्पताम यज्ञो यज्ञेन कल्पताम एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च मे एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च मे एकविंशतिश्च मे त्रयोविंशतिश्च मे पञ्चविंशतिश्च मे सप्तविंशतिश्च मे नवविंशतिश्च म एकत्रिंशच्च मे त्रयस्त्रिंशच्च मे चतस्रश्च मे अष्टौ च मे द्वादश च मे षोडश च मे विंशतिश्च मे चतुर्विंशतिश्च मे अष्टाविंशतिश्च मे द्वात्रिंशच्च मे षत्रिंशच्च मे चत्वारिंशच्च मे चतुश्चत्वारिंशच्च मे अष्टाचत्वारिंशच्च मे वाजश्च प्रसवश्च बीजश्च क्रतुश्च शुभश्च मूर्धा च व्यश्नेयश्चाध्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञने बृहस्पतिरुक्ता मदाने सगं सिषद्विश्वे देवासोक्तवाच पृथिवीमा धर्मा माहिगंसे मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुमदिष्यामि मधुमतीं देवेभ्यो वाच मुद्या सकं सश्रोष्येण्यां मनुष्येभ्यस्तं मा देवावन्तु शोभायै पितरो न मदन्तु ॐ शान्तिः शान्तिः शान्तिः।